पूर्वं श्लोके पूर्वं गद्यभागे इदमुक्तम् आसीत् यत् सीतादेवी अत्यन्तं व्यथिता, कारणं तत्र रावणः आगत्य तत्र अनिष्टवचनानि अप्रियवचनानि उक्त्वा ततः निर्गतः. यद्यपि सीता तं विवेकं बोधयितुं प्रयत्नं कृतवती, किन्तु सः न श्रुतवान् एव. सा बहु व्यथिता. सीतादेवी यदा उपविष्टा वृक्षस्य अधः, तदा सा उपरि कञ्चित् वानरं दृष्टवती. तं दृष्ट्वा तस्याः भीतिः, एषः दुःस्वप्नः वा अथवा कदाचित् रावणः एव पुनः वेषान्तरं धृत्वा, मायावी किल सः, वेषान्तरं धृत्वा अत्र आगतवान् वा इति तस्याः भीतिः. अतः एव वृक्षतः सूक्ष्मरूपं धृत्वा, यथा अन्ये अन्याः राक्षस्यः न जानीयुः, तथा सूक्ष्मरूपं धृत्वा सः तस्मात् शिंशुपावृक्षतः अवरुह्य सीतायाः पुरतः करौ योजयित्वा वक्ष्यमाणप्रकारेण उक्तवान्. अत्र श्लोके अस्ति किम् उक्तवान् इति. श्लोकं पठामः.
कल्याणी त्वद्वियोगेन
तीव्रवेगेन ताम्यतः
तीव्रवेगेण ताम्यतः
राघवेन्द्रस्य दूतं माम्
राघवेन्द्रस्य दूतं माम्
यथा मास्ममन्यथाः
अन्यथा मास्ममन्यथाः.
लघु श्लोकः किन्तु सुन्दरश्लोकः. आदौ एव हनुमान् वाक्पटुः किल, अतः सः कल्याणी इति पदेन आरम्भं करोति. तस्य तात्पर्यं पश्यामः. प्रथमं पदच्छेदः कल्याणी त्वद्वियोगेन तीव्रवेगेन ताम्यतः राघवेन्द्रस्य दूतं माम् अन्यथा मास्ममन्यथाः. किं वदति आदौ? हे कल्याणी, हे भद्रे इति सम्बोधनं करोति. किमर्थं तथा करोति इत्युक्ते, भवती सौभाग्यशालिनी एव, श्रीरामः सुरक्षितः, सः अवश्यम् आगत्य तव रक्षणं करोति इति सूचकम् इव सः तत् पदं वदति कल्याणी. पुनः वदति अहं श्रीरामस्य दूतः इति. यद्यपि वदति, पूर्वम् एकं विशेषणं योजयति. ताम्यतः राघवेन्द्रस्य दूतं मां चिन्तयतु. ताम्यतः इत्युक्ते दुःखम् अनुभवतः, अनुतापं कुर्वतः. केन कारणेन? त्वद्वियोगेन. पुनः कथं ताम्यति सः? तीव्रवेगेन. तर्हि हे कल्याणी, तीव्रवेगेन ताम्यतः त्वद्वियोगेन, अथवा अत्र हेतु तृतीया, त्वद्वियोगेन तव वियोगकारणात् तीव्रवेगेन ताम्यतः राघवेन्द्रस्य दूतं माम् चिन्तयतु, अन्यथा न चिन्तयतु इति वक्तुम् अत्र कविना सुन्दरपदप्रयोगः कृतः. माम् मन्यस्व, माम् अन्यथा मास्ममन्यथाः इति कविः वदति. अस्य अन्वयः एवमस्ति. हे कल्याणी, त्वद्वियोगेन तीव्रवेगेन ताम्यतः राघवेन्द्रस्य दूतं मां मन्यस्व, माम् अन्यथा मास्ममन्यथाः इति वदति. अत्र अलङ्कारप्रयोगेन, शब्दालङ्कारः अपि अस्ति, अर्थालङ्कारः अपि अस्ति, सुन्दरप्रयोगद्वारा कविः चमत्कृतिम् उत्पादयति. पठितॄणां सहृदयानां मनसि एवम् आह्लादः भवति एतादृश श्लोकानां पठनेन, श्रवणेन च. ಪ್ರತಿಪದಾರ್ಥಂ ಪಶ್ಯಾಮಃ ಅನ್ವಯಕ್ರಮೇ ಕಲ್ಯಾಣಿ ಹೇ ಭದ್ರೇ. ದ್ವಿತೀಯಂ ಪದಮಸ್ತಿ ತ್ವದ್ವಿಯೋಗೇನ ತ್ವತ್ತಃ ವಿಯುಕ್ತಃ ಇತಿ ಕಾರಣೇನ ತೀವ್ರವೇಗೇನ ಅತ್ಯಂತ ಭೃಶಂ ತಾಮ್ಯತಃ ಕ್ಲಿಶ್ಯತಃ ಕ್ಲಿಶ್ಯತಿ ರಾಘವೇಂದ್ರಸ್ಯ ಶ್ರೀರಾಮಸ್ಯ ದೂತಂ ಮಾಂ ಮನ್ಯಸ್ವ ಸಂದೇಶವಾಹಕಂ ಮಾಂ ಜಾನೀಹಿ. ಅನ್ಯಥಾ ಮಾಸ್ಮಂ ಅನ್ಯಥಾಃ, ಅನ್ಯಥಾ ಇತ್ಯುಕ್ತೆ ಮಾಂ ಅನ್ಯ ಪ್ರಕಾರೇಣ ಮಾಸ್ಮಂ ಅನ್ಯಥಾಃ ಮಾ ಮನ್ಯಸ್ವ, ಮಾಂ ಅನ್ಯಥಾ ಮಾ ಚಿಂತಯತು. ಅನ್ಯಥಾ ಇತ್ಯುಕ್ತೆ ಸೀತಾಯಾಃ ಮನಸಿ ಕಃ ಭಾವಃ, ಏಷಃ ಕಃ, ಪುನಃ ಕಶ್ಚನ ಮಾಯಾವಿ ರಾಕ್ಷಸಃ ವಾ ಅಥವಾ ಮಮೈವ ದುಃಸ್ವಪ್ನಃ ವಾ ಇತಿ. ಅನ್ಯಥಾ ಮಾಂ ವೇಷಾಂತರೇ ಆಗತಃ ಆಗತಂ ರಾವಣಂ ಮಾ ಚಿಂತಯತು, ಅಹಂ ಸಾಕ್ಷಾತ್ ಶ್ರೀರಾಮಸ್ಯ ದೂತಃ ಇತಿ ಭಾವಂ ಅತ್ರ ಸಹ ಕಥಯತು. ಅತ್ರ ಇತೋಪಿ ಏಕ ದ್ರಷ್ಟುಂ ಯೋಗ್ಯಃ ವಿಷಯಃ ಅಸ್ತಿ, ತ್ವದ್ವಿಯೋಗೇನ ತೀವ್ರವೇಗೇನ ತಾಮ್ಯತಃ ರಾಮಃ ಬಹು ದುಃಖಿತಃ ಅಸ್ತಿ ಇತಿ ಅತ್ರ ವಕ್ತವ್ಯಂ ವಾ ಶ್ರೀ ಆಂಜನೇಯೇನ. ಪೂರ್ವಮೇವ ಸೀತಾ ಅತ್ಯಂತಂ ದುಃಖಿತ, ಪುನಃ ರಾಮಃ ಅಪಿ ದುಃಖ ನಿಮಗ್ನಃ ದುಃಖ ಸಾಗರೇ ನಿಮಗ್ನಃ ಅತ್ಯಂತಂ ಕ್ಲೇಶಂ ಅನುಭವನ್ ಅಸ್ತಿ ಇತಿ ಕಥನಂ ಅತ್ರ ಯುಜ್ಯತೆ. ಯತಃ ವಿರಹ ತಾಪೇ ಪತಿ ಪತ್ನಿ ಉಭೌ ಅಪಿ ಸಮಾನ ರೀತ್ಯಾ ತಾಪಂ ಅನುಭವತಃ ಚೇತ್ ಪರಸ್ಪರಂ ಏಕ ಪಾರ್ಶ್ವೇ ದುಃಖಂ ಭವತಿ, ಮಮ ಪತಿ ಅಪಿ ದುಃಖಂ ಅನುಭವನ್ ಅಸ್ತಿ. ಕಿಂತು ಅನ್ಯ ಪಕ್ಷೇ ಪಶ್ಯಾಮಃ ಚೇತ್ ತಸ್ಯಾಃ ಸಂತೋಷಃ ಅಪಿ ಭವತಿ. ಕಿಂ ಸಂತೋಷಸ್ಯ ಕಾರಣಂ ಭವತಿ, ಮಮ ಪತಿ ಮಮ ಮಾಂ ಚಿಂತೆಯನ್ನೇವ ದುಃಖಂ ಅನುಭವತಿ, ಮೈ ಸಹ ಆಸಕ್ತಃ ಅಸ್ತಿ ಇತಿ ಮನಸಿ ಆಶ್ವಾಸನಂ ಭವತಿ. ಅತಃ ಎತ್ತದತ್ಯಂತಂ ಉಚಿತಂ ಉಕ್ತಂ ಆಂಜನೇಯೇನ, ಹೇ ಕಲ್ಯಾಣಿ ತ್ವದ್ವಿಯೋಗೇನ ತೀವ್ರವೇಗೇನ ತಾಮ್ಯತಃ ರಾಘವೇಂದ್ರಸ್ಯ ದೂತಂ ಮಾಂ ಚಿಂತಯ ಇತಿ. ಅತಃ ನಿಶಂಕಂ ಮೈ ವಿಶ್ವಾಸಂ ಕರ್ತುಂ ಅರ್ಹಸಿ, ಅಹಂ ಮಾಂ ಅನ್ಯಥಾ ಮಾ ಚಿಂತಯಿತು, ಮತ್ತಃ ಅಪಾಯಃ ನ ಭವತಿ ತವ, ಅಹಂ ಸಹಾಯಂ ಆಚರಿತುಮೇವ ಅತ್ರ ಆಗತವಾನ್ ಅಸ್ಮಿ ಇತಿ ತಸ್ಯ ಕಥನ. ಭಾವಾರ್ಥಃ ಆಂಜನೇಯಃ ಉಕ್ತವಾನ್ ಹೇ ಭದ್ರೇ ತ್ವತ್ತಃ ವಿಯೋಗಂ ಅಸಹಮಾನಸ್ಯ ನಿತಾಂತಂ ಸಂತಪ್ತಸ್ಯ ಶ್ರೀರಾಮಸ್ಯ ದೂತಃ ಅಹಂ, ಮಾಂ ವೇಷಾಂತರಂ ಧೃತ್ವಾ ತತ್ ಪುರತಃ ಪುನಃ ಆಗತಂ ರಾವಣಂ ಮಾ ಮನ್ಯಸ್ವ. ಕಂಚಿತ್ ಕಾಲಾತ್ ಪೂರ್ವಮೇವ ರಾವಣಃ ತತಃ ಗತವಾನ್, ಕಿಂತು ವಿಫಲಃ ತಸ್ಯ ಪ್ರಯತ್ನೆ ಸೀತಾಂ ಪ್ರಾಪ್ತುಂ ತಸ್ಯ ಪ್ರಯತ್ನಃ ವಿಫಲಃ ಇತಿ ಕಾರಣೇನ ಪುನಃ ಅನ್ಯ ಮಾರ್ಗೇಣ ಸೀತಾಯಾಃ ಸಮೀಪಂ ಆಗಂತುಂ ಪ್ರಯತ್ನಂ ಕರೋತಿ ವಾ ಇತಿ ತಸ್ಯಾಃ ಚಿಂತನಂ ಭವತ್ಯೇವ. ಅತಃ ಪುನರಾಗತಂ ತಂ ರಾವಣಂ ಮಾಂ ಅನ್ಯಸ್ವ ಮಾಂ ನಿಶಂಕಂ ಮೈ ವಿಶ್ವಸಿಹಿ ಅಹಂ ರಾಮಸ್ಯ ದೂತಃ ಇತಿ ಆಂಜನೇಯಃ ವದತಿ. ಅಸ್ಮಿನ್ ಶ್ಲೋಕೆ ಮಾಂ ಅನ್ಯಥಾ ಮಾಸ್ಮಂ ಅನ್ಯಥಾಃ ಇತ್ಯತ್ರ ಮಾಸ್ಮಂ ಅನ್ಯಥಾಃ ಇತಿ ಯತ್ ಕ್ರಿಯಾಪದಮಸ್ತಿ ತತ್ರ ಅಸ್ಮಾಭಿಃ ಕಿಂಚಿತ್ ಅವಲೋಕನೀಯಂ ಭವತಿ ಇತಿ ಪ್ರಯೋಗ ವಿಷಯೇ. ವಸ್ತುತಃ ಅತ್ರ ಕ್ರಿಯಾಪದಂ ಕಿಂ ಇತಿ ಚೇತ್ ಅಮನ್ಯಥಾಃ ಇತಿ ಏವ ಕ್ರಿಯಾಪದ. ಅಮನ್ಯಥಾಃ ಇತಿ ಕಃ ಲಕಾರಃ? ಲಂಗ್ ಲಕಾರಃ ಭವತಿ. ತ್ವಂ ಮಾಂ ಏವಂ ಮಾ ಚಿಂತಯತು, ಮಾ ಚಿಂತಯ ಇತಿ ಅರ್ಥೇ ಅಮನ್ಯಥಾಃ. ತರ್ಹಿ ಅತ್ರ ಲೋಟ್ ಅರ್ಥಃ ಕಿಲ ಭವತಿ ಭವೇತ್ ಅಥವಾ ವಿಧಿಲಿಂಗ್ ಅರ್ಥಃ ಸ್ಯಾತ್, ಕಿಮರ್ಥಂ ಅತ್ರ ಭೂತಕಾಲ ಪ್ರಯೋಗಃ ಇತಿ ಅಸ್ಮಾಕಂ ಚಿಂತನಂ ಭವತಿ. ಏವಂ ಮಾ ಯೋಗೇ ಮಾಂ ಇತಿ ಅವ್ಯಯ ಪದಂ ಅಸ್ತಿ, ಮಾಂಗಿ ಲುಂ ಇತಿ ಏಕ ಸೂತ್ರಮಸ್ತಿ. ತತ್ ಸೂತ್ರಂ ಕಿಂ ಬೋಧಯತಿ ಇತ್ಯುಕ್ತೆ ಯದಾ ಮಾಂಗ್ ಅವ್ಯಯೇನ ಸಹ लुं प्रयोगः भवति तर्हि तत् पदं भूतकालं न सूचयति लोटर्थं सूचयति आज्ञाम् अथवा प्रार्थनां सूचयति इति अर्थः अस्य सूत्रस्य माङि लुं तर्हि अत्र तु अमन्यथाः इति लङ् इति अस्ति किल एवं चेत् अपरमपि एकं सूत्रमस्ति स्मोत्तरे लङ् च यदि मा स्म स्मप्रयोगः भवति अन्य अव्ययम् अन्यदेकम् अव्ययं स्मप्रयोगः भवति चेत् लुङ् अपि भवेत् भवितुमर्हति लङ् अपि भवितुमर्हति अतः एव अत्र अमन्यथाः इति लङ् प्रयोगः मा स्म मन्यथाः पुनः इतोपि तर्हि अमन्यथाः इति किमर्थं नास्ति इति प्रश्नः पुनः भवति मन्यथाः इति किमर्थम् अस्ति इत्युक्ते तत्र अडागमः अस्ति किल अकारस्य तस्य निषेधः एकेन सूत्रेण भवति न माङ् योगे इति सूत्रेण माङ् इति अव्ययं भवति तत्र माङि लुङ् इति अत्र लुङ् भूतकालस्य रूपं किन्तु लोटर्थे प्रयोगः भवति चेत् तत्र अडागमः अकारस्य निषेधः भवति अन्यत्र न भवति यदा लुङ् भूतकालार्थे एव लुङ् अथवा लङ् इत्यनयोः प्रयोगः भवति चेत् तत्र अडागमनिषेधः न भवति किन्तु भूतकालसूचकं पदं किन्तु अर्थः लोटर्थः भवति चेदेव तत्र अडागमनिषेधः एतेन सूत्रेण अडागमनिषेधः इति अतः एव मा स्म मन्यथाः अन्यथा अमन्यथाः इति एव पदम् एतादृशप्रयोगः भगवद्गीतायां बहुत्र वयं द्रष्टुं शक्नुमः तत्र उदाहरणानि अत्र उल्लिखितानि सन्ति यथा क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्युपपद्यते क्षुद्रं हृदय दौर्बल्यं त्यक्तोत्तिष्ठ परन्तप इति द्वितीय अध्यायस्य आरम्भे एषः श्लोकः प्रसिद्धः श्लोकः तत्र श्रीकृष्णः अर्जुनं वदति क्लैब्यं मा स्म गमः गमः इति कीदृशप्रयोगः अगमः अत्र लुङ् एव अद्यतन लुङ् यथा अभूत् अभूताम् अभूवन् अभूः इति अस्ति किल तथैव अगमः मा अगमः इति किन्तु पुनः माङि लुङ् इति सूत्रेण अगमः इति लुङ् रूपमेव किन्तु अर्थः लोटर्थे मा गच्छ इति अर्थः तथैव न माङ् योगे इति सूत्रेण अडागमनिषेधः इति कारणेन मागमः इति रूपं सिद्धम् कर्मण्येव अधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भूः मा ते सङ्गः अस्तु अकर्मणि इति प्रसिद्धे गीताश्लोके अपि अयं प्रयोगः अस्ति द्वितीयपङ्क्तौ प्रथमपादं श्लोकस्य तृतीयपादं पश्यामः चेत् मा कर्मफलहेतुः अभूः इति स्यात् अभूः इति लङ् मध्यमपुरुष एकवचनं लङ् प्रथमपुरुष एकवचनम् अभूत् अभूत् अभूताम् अभूवन् अभूः इति मध्यमपुरुष एकवचनं किन्तु अत्र प्रयोगः अस्ति हेतुः भूः हेतुः भूः इति तर्हि तद् मा इति अव्ययपदमस्ति इति कारणेन अत्र अभूः इति लुङर्थं न बोधयति अपि तु लोट् अर्थं बोधयति मा भव कर्मफलहेतुः मा भव इति अर्थम् अर्थबोधकम् इदम् अयं प्रयोगः मा कर्मफलहेतुः भूः मा भूः इति अर्थः एवं पुत्र उदाहरणैः अपि वयम् एतत् दृष्टवन्तः कथम् अत्र रामायण अपि एवं श्रीमद्वाल्मीकिरामायणे किम् उक्तम् अस्य श्लोकस्य भावः तत्र कथं सम्प्रेषितः इति पश्यामः त्वत्कृते तम अनिद्रा च शोकचिन्ता च शोकः चिन्ता च राघवं तापयन्ति महात्मानं अज्ञागारं इव अग्नयः इति. त्वत्कृते तव विषये चिन्तयन् सः निद्रां न प्राप्नोति, अतः के तं तापयन्ति, के तं क्लेशं यच्छन्ति इत्युक्ते अनिद्रा, शोकः, चिन्ता च. एते विषये त्रयः विषयाः अपि श्रीरामं तापयन्ति, अतः सः निद्रां न प्राप्नोति. अनिद्रा, न निद्रा, अनिद्रा, पुनः शोकः, दुःखं, तव वियोगात् दुःखं, चिन्ता, कथं सा सुरक्षिता अस्ति वा, पुनः तस्याः प्रतिप्राप्तिः कथम् इत्यादि विषयान् इत्यादिकचिन्ताः तं बाधन्ते. अतः सः तप्तः अस्ति, सन्तप्तः अस्ति, दुःखसन्तप्तः अस्ति. श्रीमद् रामायणे अपि वयं द्रष्टुं शक्नुमः. एकवारं श्लोकं वयं पठामः. कल्याणि त्वद्वियोगेन
तीव्रवेगेण तमान्यतः राघवेन्द्रस्य दूतं माम् अन्यथा मास्मम् अन्यथाः